ससाक्षम् अन्तरालेखम् पुत्रमित्रादिनापि च ससाक्षम् अन्तरालेखम् पुत्रमित्रादिनापि च भूवित्तदानादानाभ्यां व्यवहार्यं न कर्हिचित् व्यवहार्यं न कर्हिचित्